अन्यदा सा चलिता शुकः प्र आह याहि देवि न ते दोषः यदि जानासि भाषितुम् रत्नादेवी इव पत्या तु प्र आप्ता जारद्वय अन्नुता अस्ति जलौद अभिधानः ग्रामः तत्र राजपुत्रः क्षेमराजः शूरः रत्नादेवी तस्य भार्या तत्र एव ग्रामणीः देवस आख्यः तस्य सुतः धवलः नाम तौ द्वौ अपि रमेते रत्नादेवीम् परस्परम् अज्ञातौ अन्यदा पितृपुत्रौ तद्गृहस्थौ यदा तदा राजपुत्रः सम् आगतः तदा किम् उत्तरम् शुकः आह ततः तया कृतसंज्ञः गृहात् अङ्गुल्या तर्जयन् अयात् तस्मिन् च एव गच्छति भयात् पतिः किम् इदम् इति आह ततः सा हसन्ती प्र आह अस्य पुत्रः त्वद्गृहे शरण आगतः मया च न अर्पितः यतः सः क्षत्रियः त्राणसहः सतां यः तत् कार्मुकम् कर्मसु यस्य शक्तिः वहन् द्वयीम् अपि अफले अर्थजाते करोति असंस्कारहताम् इव उक्तिम् अतः रुष्टः व्रजति गच्छ त्वम् समर्पय सुतम् तेन च तथा कृतम् इति कथां श्रुत्वा प्रभावती सुप्ता